इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका कामना झाः। आदौ मुख्य वार्ताः। प्रधानमन्त्री अन्तर्राष्ट्रिय योग दिवसस्य अवसरे जम्मू कश्मीरस्य श्रीनगरात् उत्सवस्य नेतृत्वं प्रधानमन्त्री नरेन्द्र मोदी कृतवान्। योग उत्साहिना आविश्वे सो उत्साहं दिवसम् आचरन्ति। दिल्ली उच्च न्यायालयेन कथितं मद्य नीति प्रवञ्चना प्रकरणे मुख्यमन्त्रिणः अरविन्द केजरीवालस्य याचिका स्थगिता कृता। बांग्लादेशस्य प्रधानमन्त्री शेख हसीना द्विदिवसीय यात्रायै नवदिल्ली नगरम् आगता। टेनिस क्रीडायाम् अद्य सायं इटली देशे WTA वेंटो ओपन क्रीडायाः महिला एकल प्राग उपान्त्य चक्रे क्रीडायाम् स्विट्जरलैंड देशस्य सुसान बैंडिच इत्यस्य भारतस्य अंकिता रैना इत्यनया सह स्पर्धा भविष्यति। इदानीं वार्ताः विस्तरेण। दशमं अन्तर्राष्ट्रिय योग दिवसः सम्पूर्णे विश्वे परिपाल्यते। प्रमुख कार्यक्रमः जम्मू कश्मीरस्य श्रीनगरस्य शेर कश्मीर अन्तर्राष्ट्रिय सम्मेलन केन्द्रे आयोजितवान्। प्रधानमन्त्री श्रीनरेन्द्र मोदी श्रीनगरतः अस्य कार्यक्रमस्य नेतृत्वं कृतवान्। आहत्य 7,000 जनाः प्रधानमन्त्रिणा सह डल जलाशय तटे एकत्रितः अभवन्। प्रधानमन्त्रिणः नेतृत्वयुक्ते एतस्मिन् कार्यक्रमे जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हः केन्द्रीय मन्त्री प्रताप रावः गणपत राव जादवः अन्ये च गणमान्यः जनाः उपस्थिताः आसन्। अस्य वर्षस्य योगदिवसस्य शीर्षको वर्तते स्वस्मै समाजाय च योगः इति। अस्य कार्यक्रमस्य उद्देश्यं योग अभ्यास द्वारा वैश्विक स्वास्थ्य कल्याणं च संवर्धयितुं सहस्राधिक प्रतिभागिनाम् एकत्रीकरणम् अभवत्। कार्यक्रमावधौ प्रधानमन्त्री जनसभागम् अपि सम्बोधितवान् अपि च सामान्य योगम् अपि सम्बोधितवान् अपि च सामान्य योग सत्रे भागं भजितवान् यस्मिन् शारीरिक मानसिक आध्यात्मिक विकासस्य प्रतिपोषणे योग महत्वं प्रतिपादितम्। प्रधानमन्त्री नरेन्द्र मोदी जम्मू कश्मीरस्य द्विदिवसीय यात्रायाम् अस्ति। श्रीमोदी 500,000,000,000 रूप्यकाणां चतुर्शीतिः प्रमुखासानां विकास परियोजनानां शिलान्यासम् उद्घाटनं कृतवान्। सम्पूर्णे विश्वे उत्साहेन परिपाल्यते योगः। बांग्लादेशे अन्तर्राष्ट्रिय योग दिवसस्य अवसरे ढाका नगरस्य मीरपुर क्षेत्रे शहीद सुहरावर्दी इंडोर क्रीडांगणे भारतीय उच्चायोगेन भव्य योग कार्यक्रमः आयोजिताः। आयोजस्थले उपस्थितान् योगानुरागिणः सम्बोधयन् कार्यवाहकः उच्चायुक्तः डॉक्टर बिनॉय जॉर्जः प्रोक्तवान् यत् योगः भारतस्य बांग्लादेशस्य च जनानां शारीरिक मानसिक स्वास्थ्यस्य प्रवर्धनं कुर्वन् एकीकृत शक्तिरूपेण कार्यं कर्तुं शक्नोति। दुबई देशे आयोजिते अन्तर्राष्ट्रिय योग दिवसस्य समारोहे 75,000,000+ जनाः भागं भजितवन्तः। श्रीलंका देशे ऐतिहासिक गैले दुर्गे अन्तर्राष्ट्रिय योग दिवसः आचर्यते। हम्बनटोट नगरस्य भारतस्य महावाणिज्य दूतावासेन गैल नगरस्य यूनेस्को विश्व विरासत स्थले अस्य समारोहस्य व्यवस्था कृता अस्ति। दिल्ली उच्च न्यायालयेन कथितं मद्यनीति प्रकरणे मुख्यमन्त्रिणः अरविन्द केजरीवालस्य मुक्ति याचिका स्थगिता। न्यायालयेन प्रोक्तं यत् मुख्यमन्त्रिणम् अरविन्द केजरीवालं मुक्ति दातुं विशेष न्यायालयस्य आदेशं तथावत् प्रभाविम् न भविष्यति यथावत् सः अस्मिन् प्रकरणे प्रवर्तन निर्देशालयस्य संवाहन याचिकासु वादश्रवणं न करिष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषे तन्त्रांशो अपि उपलब्धो भविष्यति। बांग्लादेशीया प्रधानमंत्री शेख हसीना इत्येषा अद्य आरभ्य भारतस्य द्विदिवसीय यात्रां प्रति आयाति। स्वयात्रावधौ प्रधानमन्त्रिणा नरेन्द्रमोदिना सह द्विपक्षीय विचार विमर्शान् अतिरिच्य सा राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया उपराष्ट्रपतिना जगदीप धनखड़ेन च सह मेलनं करिष्यति। विदेशमन्त्रिणा एस जयशंकरेण सह तस्याः पारस्परिको उपवेशनं सुनिश्चितम् अस्ति। सर्वोच्च न्यायालयः चिकित्सक स्नातक प्रवेश परीक्षायाम् अस्मिन् वर्षे जायमानं काउंसलिंग निर्वयितुं निरस्तीकृतवान् तथा च राष्ट्रिय परीक्षा संस्थानं सूचनापत्रम् अपि प्रेक्षितवान्। न्यायालयः नूतनां याचिकां विद्यमान याचिकाभिः सह सम्बद्धं कृत्वा वादश्रवणं प्रक्रिया जुलाई मासस्य अष्टदिनांके भविष्यति इति निर्णयं कृतवान्। आकाशवाणी वार्ता भारत देशे सर्वाधिक विश्वसनीय वार्ता ब्रांड उपाधि इति मन्यते। ऑक्सफोर्ड विश्वविद्यालयस्य रॉयटर्स इंस्टीट्यूट फॉर द स्टडी ऑफ जर्नलिज्म इत्यस्य सर्वेक्षणे पुष्टिम देशस्य वार्ता जगति आकाशवाणी वार्तायाः श्रेष्ठतायाः पुष्टिम कृतम्। प्रसार भारती इत्यस्य अध्यक्ष नवनीत कुमार सहगेन प्रोक्तं यत् अस्याम् उल्लेखनीय उपलब्धौ सर्वासु स्थितिषु सत्याम् प्रमाणिकं च वार्ता प्रसारणाय एषा आकाशवाणी वार्ता सुदृढतयाः प्रतिबद्धतयाः च प्रमाणम् अस्ति। भारतस्य ऋतु विभागेन आगामीषु पञ्चदिवसेषु केरल राज्यस्य तटीय क्षेत्रे कर्णाटकस्य दक्षिण क्षेत्रे कोंकण क्षेत्रे च अतिवृष्टेः पूर्वानुमानं कृतम्। आईएमडी इत्यनेन प्रोक्तं यत् पूर्वोत्तर असमस्य उपरि तत्समीपस्थेषु क्षेत्रेषु चक्रवात संचारस्य निर्माणस्य संभावना वर्तते तथा च तस्य प्रभावेण अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम त्रिपुरा प्रदेशेषु उपरी हिमालय क्षेत्रे पश्चिम बंगाले च मध्यमा वृष्टिः संभाव्यते। अद्य विश्व संगीत दिवसः आचर्यते। एषः दिवसः फेत डे लॉ म्यूजिक इत्यनेन नामना अपि प्रसिद्धः अस्ति। अयं वार्षिकः उत्सवः वर्तते च संगीतस्य शक्तिं तस्य सर्वात्रिकं भाषां च प्रवर्धयति। विश्व संगीत दिवसे विश्वस्य संगीतकारः संगीतप्रेमिणः च एकास्थले आगत्य विभिन्नानां संगीतविधानानां प्रदर्शनं कृत्वा आनन्दं लभ्यन्ते। टेनिस क्रीडायाम् अद्य सायं इटली देशस्य गायवा नगरे WTA वेन्टो ओपन टेनिस स्पर्धा श्रृंखलायाः महिला एकल प्राग उपान्ते चक्रे भारतस्य अंकिता रैनाम स्विट्जरलैंड देशस्य सुसान बंदीजी इत्यनेन सह स्पर्धयिष्यते। प्राग उपान्ते चक्रे अंकिता रोमानिया देशस्य इरीना बोराम 6-2, 2-6, 6-0 अंकैः पराजितवती। अन्तौ मुख्य वार्ताः पुनः एकवारम्। प्रधानमंत्री अन्तर्राष्ट्रिय योग दिवसस्य अवसरे जम्मू कश्मीरस्य श्रीनगरात् उत्सवस्य नेतृत्वं प्रधानमंत्री नरेन्द्र मोदी कृतवान्। योग उत्साहिना अविश्वसो उत्साहं दिवसम् आचरति। टेनिस क्रीडायाम् अद्य सायं इटली देशे WTA वेन्टो ओपन क्रीडायाः महिला एकल प्रागुपान्ति चक्रे क्रीडायां स्विट्जरलैंड देशस्य सुआन